बुद्धिर्भवतु मे सदा।
विमल जी,
यस
ओके, यू फिनिश्ड?
या यू कैन किरण हियर मी? सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा।
ओके, थैंक यू, थैंक यू विमल जी, दैट वाज गुड। ओके, सो आई रिसीव्ड मोस्ट ऑफ योर होमवर्क। I'm correcting, like from the beginning I'm correcting. I will check and I will let you know for any correction. Okay, so we will start off the class. Are there any doubts, like from previous session? If you have any doubts, please let me know. Today's class, I thought of starting today's class with small abhyasam. All of you, can you mute yourself? Yes, sir. So you are able to see my screen? This one, Bahuvachanam, you are able to see? Everyone is able to see?
Yes.
Okay, so we will start off with Abhyasam. You will have to tell, each one of you will have to tell Bahuvachanam for each word present in the PDF. So let's start with Pranav and Gauravji. Pranavji? Pranavji, first word is Gajah. Yeah. Gajaha is the first word. You have to tell Bahuvachanam. Bahuvachanam means plural.
Gaja.
Gajaha. Excellent. Gauravji, next word is Syutaha. Syutaha.
Syutaha.
Syutaha. Excellent. Syutaha means bag. Gajaha means elephant. That's really good. Thank you, Pranavji and Gauravji. Next is Narasimhan.
What is Syutaha?
Bag, ji, bag. Bag. No. B-A-G, bag. Narasimhan ji, next is Achaha. Ashwaha. Ashwaha. Excellent. Thank you, Narasimhanji. Bimalji, next is Vaidyaha. Ashwaha means horse. Next is Vaidyaha means doctor. Vaidyaha.
Vaidyaha.
Vaidyaha. Excellent. Aparna Bhagini. Balakaha.
Balakaha.
Balakaha. Excellent. Dhanyavadaha Bhagini. Rameshji, Shekaraha. Okay. Good. Sudhirji, Chatakaha. Samarji, Kakaha.
Kakaha.
Nice. Prasanna ji,
Simhaha.
Okay, nice. Sheshadri ji, Deepaha. Okay, Sheshadri ji, Shikshika.
शिक्षिकायाः
शिक्षिकाः लता लताः लैक् शिक्षिका शिक्षिकाः बहुवचनम् यू हाव् टु टेल् शिक्षिकायाः विल् बिकम् षष्ठी विभक्ति दट्स् नाट् द वन् वि आर् स्पेल्लिङ्ग् प्रथमा विभक्ति फस्ट् विभक्ति बहुवचनं शिक्षिकाः
शिक्षिकाः
ओके गायिका शेषादिजि गायिका
गायिकाः
गायिकाः एक्सलेण्ट् प्रसन्नाजी गुलिकाः सोरि गुलिका गुलिकाः ओके प्रसन्नाजी द्विचक्रिका जस्ट् अ मिनट् ऐ एम हियरिंग
द्विचक्रिकाः
द्विचक्रिकाः ओके नैस् नेक्स्ट् इस् सुधीर जी लता 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 15th वर्ड
लता लताः
लताः समर जी दूरवाणी
दूरवाण्या
दूरवाण टेल इट प्रॉपर्ली दूरवाण
दूरवाण्यः
दूरवाण्यः ओके सुधीर जी घटी It's just like Duravani. Samarji told, right? Duravani, Duravanya. Then Gati, what will it be?
Gatyaha.
Gatyaha. Gatyaha. Duravani, Duravanya. Gati, Gatyaha. Then what will Saraswati be?
Saraswatyaha.
Saraswatyaha. No, yes, Saraswatyah. Okay, that's nice. Ramesh ji, Janani?
Jananyah.
Jananyah. Ramesh ji, Koopi?
Koopyah.
Koopyah. Nice, nice. Aparna Bhagini, Vastram?
वस्त्राणि
वस्त्राणि नैस् लोकयानम् अपर्णवन्दी लोकयानम्
लोकयानानि
लोकयानानि दट्स् नैस् एक्सलेण्ट् बिमल् जी आसनम्
आसन्याः
लोकयानम् इट् इस् लोकयानानि वस्त्रम् इट् इस् वस्त्राणि देन् आसनं वाट् विल् इट् बि
आसनानि
आसनानि नैस् गृहं विमल् जी गृहं
गृहं विल् बि गृहाणि
गृहाणि नैस् नरसिंहन् जी नक्षत्रम्
नक्षत्राणि
पत्रं नरसिंहजि
पत्राणि
नै प्रणवजि नो गौरवजि कर्गजं कर्गजं
कर्गजानि
कर्गजानि प्रणवजि विमानम्
विमानानि
विमानानि गौरव जी विभूषणम्
विभूषणानि
विभूषणम् इट् विल् बि
विभूषणानि
विभूषणानि विभूषणानि प्रणव जी नेत्रम्
नेत्राणि
नेत्राणि वेरी गुड Okay, now we saw for verbs. Now what we are going to see? We are going to see for verbs, right?
Yes,
so,
madam, one doubt please. One doubt
yes,
please.
Yes, G.
Here, Lata is a name of a lady. Lataha, plural, how will it come?
Lata name. Means creeper. Lata means creeper. Creeper.
Creeper.
Creeper. C-R-E-E-P-E-R. Creeper. Yes. Lata, creeper.
Oh, sorry. Thank you.
Kargajam means what?
Karkajam, I myself, I'm not sure. I have noted it down. I will let you know. Karkajam, then another one is Gulika. Gulika and Karkajam, I'm not sure what it is.
Gulika means tablet.
Gulika, okay. Gulika means tablet. Okay.
Tablet, yeah.
Okay. Then Karkajam, I'm not sure what it is. I will check that and let you know. I have already noted it down. Okay, so verbs we are going to see. Asti, what is the plural? It will be santi. Balakaha asti, balakaha asti, balakaha santi. Likewise, gachati, what is the plural? Aparna bhagini.
Gachanti.
Gachanti. Nice. Narsimhaji, Gayati, what is the plural?
Gayanti.
Gayanti. Likati, Sheshadriji, Likati, plural? Sheshadriji, Likati, plural?
Just a minute, I am unmuting. Okay. Likanti, likanti.
Likanti, nice. Samarji, smarati. Smarati.
Which number is
that? Pustvanji.
Smaranti.
Smaranti, nice. Pranavji, chalati.
Chalanti.
Chalanti. Prasannaji, Nrityati.
Nrityanti.
Nice. Nrityanti. Rameshi, Harati.
Haranti.
Haranti. Gauravji, Pashyati.
Pashyanti.
Okay. Sudhirji, Hasati.
Hasanti.
Hasanti. Badami, what is the plural? Who is going to tell? Wait. I think all of you told.
What?
Okay, Bimalji. Bimalji. Badami, yeah. What is the plural?
Badami will be. Badam myah.
Aham. Vadami. This is Vadamaha. Right. Vadamaha. Correct. Vadamaha. Vimalji has charati. Charati. Charati, what is the plural? Instead of me, I am telling ti. What will be the plural?
Charanti. Charanti.
Charanti. I think this is spelling mistake. Okay. Charami. Right. Correct. Only. Okay. Next, Aparna Bhagini. Everyone else told, I think, this one. Okay. Prasannaji. Prasannaji, Kridami.
Kridamaha.
Kridamaha. Sheshadriji, Rakshami.
Rakshamaha.
Rakshamaha. Sudhirji, Davami.
Davamaha.
Davamaha. Samarji, Aham.
Vayam.
Excellent, Vayam. Pranavji, Dhyayami.
Dhyayam.
Dhyayami. What will be the plural?
Dhyayamaha.
Dhyayamaha, excellent. Gauravji, Nindami.
Nindamaha.
Nindamaha. Narsimhaji, Rachayati. Rachayati. रचयन्ति नज़ीर मंजी रचयामि रचयामः एक्सलेंट रमेश जी प्रविशामि
प्रविशामः
रमेश जी प्रविशति
प्रविशन्ति
प्रविशन्ति एक्सलेंट ओके सो समयः कः दिस इज वन अभ्यासम ओके now the time is 2:55 what will be the time how will you say 2:55 Sudhir ji
2:55 pancha panchona dvivadanam
panchona 2:55 is the
time.
Panchauna Tri Vadanam. Excellent. 3:45 is the time. Samasthi.
Padona Chatur Vadanam.
Padona Chatur Vadanam. Excellent. 7:10. Narsimhaji, 7:10.
दश
अधिक सप्तवादनम् एक्सलेंट अपर्णा भगिनी 9:35
पञ्चविंशति ऊन दशवादनम्
पञ्चविंशति ऊन दशवादनम् और पञ्चत्रिंशत् अधिक
नववादनम्
Okay.
Okay. Prasanna ji, 11:40. I don't know if this is the right way to say it. Dashadika Sarda
Dashadika Sarda
चत्वारिंशत् अधिक एकादशवादनम्
अधिक एकादशवादनं दट्स् करेक्ट् ऊन इस् लेस् अधिक मीन्स् मोर् फार् देट् अधिक 11 ऐ मीन् 40 मोर् देन् 11 दट् इस् द वन् 20 लेस् टु 12 देन् अट् दट् टैम् ओन्लि वि हव् टु यूस् द्वादशवादनम् Yes,
Prasanna. Vinshat is 20.
Vimshati, yes.
Vimshat Una Vadashavadana.
Vimshati Una Vadashavadana. Excellent. Super. Okay, Pranav ji, 6:05.
Mancha Adhika. षट्वादनम्
पञ्चाधिकषट्वादनम् एक्सलेण्ट् 5:15 गौरव् जी
सौध पञ्चवादनम्
15 is what? Sarda or?
Sapada
or Sapada, excellent. Sapada Panchavadana. Very nice. Okay. Sheshadriji,
4:25.
पञ्च विंशति अधिक चतुर्वादनं
पञ्चविंशति अधिक चतुर्वादनं रमेश जी 12:20
विंशति अधिक द्वादशवादनं
विंशति अधिक द्वादशवादनं एक्सलेंट इज देयर एनीवन हू डिडंट गेट द Okay, everyone got? Okay. Then Ramesh ji, 150.
Dashavuna Dvivadanam.
Dashavuna Dvivadanam, excellent. Okay, so this is the one. Bimal ji, you got the turn, right? I don't remember.
No. I just unmuted myself. Yeah, I not got a turn.
Okay, Bimal ji, 5:30.
That will be Sardha Panchavadanam.
Sardha Panchavadanam. Sardha Panchavadanam. Okay, we are done with this. We will go to Abhyasa Pustaka. In that last week, till what page we completed?
4.5 Vishesh Abhyasam.
Okay, Vishesh Abhyasam 4.5, is it? Okay, so all of you have completed that, I think. I will check it now. Okay, 4.5 we have to start. That will be page 23, right? Page 23. Take Abhyasa Pustakam, page 23. Okay, so can anyone tell me what are the seven question plaguing words which we have seen till now?
किमर्थम्
इस् देट् रैट् अपर्णा भगिनि यू आल्सो वाण्ट् टु टेल्
यस् मेम् सेम् थिङ्ग्
Okay, so these are the seven questioning words we have seen. We saw few examples and I think I gave you homework for framing those questioning words, right? Make sentences using those questioning words.
Yes.
Now we will see, I haven't corrected them, I will correct it. Now we will see exercises based on that, right? First we will start with Narasimhanji was the one who suggested this idea, so I will start from Narasimhanji. Pancha Syutaha Santi. Kati Syutaha Santi Pancha. For that we have to ask, Kati means how many, right? How many bags are there? Pancha, five bags are there. Pancha Syutaha Santi. Shat Palani Santi. Narasimhanji. How will you kati palani santi? Excellent. Pranav ji, ashta parnani santi.
Kati parnani santi.
Kati parnani santi. Excellent. Gaurav ji, shat vatayanani santi.
Kati vatayanani santi.
Excellent. Aparna bhagini, dash ankanyaha santi. How many are there?
Sapta ankanyaha santi. Kati ankanyaha santi?
Sapta सप्त अङ्कण्यः सन्ति कति अङ्कण्यः सन्ति एक्सलेण्ट् बिमलजी हौ मेनि कीस् आर् देर् डेश् कुञ्चिकाः डेश्
षट् कुञ्चिका सन्ति
हौ मेनि सारि हौ मेनि
षट्
ऐ कुड् बि फैव्
सोरि सोरि पञ्च पञ्च कुञ्चिकाः सन्ति कति कुञ्चिका सन्ति
पञ्च कुञ्चिकाः सन्ति कति कुञ्चिकाः सन्ति एक्सलेण्ट् जी
कुञ्चिका वाट् डस् इट् मीन्
की की as you can see from yes from the picture you can see right just a minute Syutaha means bag palani means whatever fruit karnani means leaf vatayanani window अङ्कन्यः पेन्सिल् कुञ्चिका विस् की रैट् ओके नेक्स्ट् इस् फस्ट् इस् कति वि हाव् सीन् दट् नेक्स्ट् इस् कुत्र कुत्र मीन्स् वाट् श्रेषाद्रिजी कुत्र मीन्स् वाट् यस्
प्रसन्नजी
यस् ओके okay ji okay putra means where so as we can see from the exercise 5.1 kutra pustakam asti yute pustakam asti okay Sheshatri ji kutra pustakam asti granthalayah library how will you say in library books are there book is there
putra pustakam asti means
granthalayah granthalayah just like syutah syutah for syutah it is syute pustakam asti in bag we have books so granthalayah okay. is the next word
okay
pustakam will be there at granthalayah library so how will you say
plural not
plural word. no not okay don't get confused see kutra pustakam asti where is the book where the book is so for that in bag we have the book for that in bag we have few text sorry similarly in library in granthalaya how will you say syutah syute granthalayah
granthalayah pustakam asti
syutah syute granthalayah
pustakam asti
madam can I ask a question
yes ji yes
yes so here we have one book so one bag so syutah we are using and we're using asti if we had many bags would we use syutah and santi
syutah no it will be actually pustakani yes pustakani santi now okay. Syute is saptami vibhakti in syuta in bag for that kutra will answer for when we are answering for kutra we have to put saptami vibhakti for subject seventh case for the subject
okay
so
okay
now syutah will be syute when you have many books you will have to put saptami vibhakti plural it will be syuteshu
okay
right
okay.
We won't see it now just remember that verb will go with the object here so syute pustakani santi right
okay ma'am I understand
okay
thank you
now coming back to this Sheshadri ji syutah syute then granthalayah will become
ग्रन्थालयते पुस्तकम् अस्ति
ग्रन्थालये स्यूतः स्यूते जस्ट् लैक् देट् ग्रन्थाल जस्ट् पुट् ए दट्स् इट् स्यूतः स्यूते ग्रन्थालयः ग्रन्थालये पुस्तकम् अस्ति शेषादिजं नौ ऐ एम् पर्टिक्युलर्ली आस्किङ्ग् यू बिकास् यू हेव् मेड् अ मिस्टेक् इन् द होम्वर्क् लैक् घटाः जलम् किञ्चित् जलम् अस्ति यू हेड् रिटर्न् इन् द होम्वर्क् ऐ हेड् पुट् लैक् घटे किञ्चित् जलम् अस्ति सो कुत्र जलम् अस्ति टु आन्सर् देट् क्वशन् इट् विल् बि घटे सप्तविभक्ति यु हेव् टु पुट् रैट् सो घटे पुस्तक जलम् अस्ति शेषदिजि नौ अगेन् अगेन् फार् यू आपणः आपणे पुस्तकम् अस्ति एक्सलेण्ट् एक्सलेण्ट् ओके प्रसन्नजि हस्तः हस्ते पुस्तकम् अस्ति एक्सलेण्ट् कुत्र पुस्तकम् अस्ति हस्ते पुस्तकम् अस्ति आपणे पुस्तकम् अस्ति ग्रन्थालये पुस्तकम् अस्ति स्यूते पुस्तकम् अस्ति टु आन्सर् कुत्र वी हेव् टु पुट् द वर्ड् इन् सप्तमी विभक्ति वेर् right remember just remember this case we will see in detail later okay
what is meaning of apne
store shop yes shop store store or shop store stop shop
shop
shop yes
okay
okay now कुत्र बालकः अस्ति वेर् इस् द बाय् बाय् इस् एट् हौस् गृहे बालकः अस्ति गृहे बालकः अस्ति ओके रमेशी नगरं
नगरे
नगरे बालकः अस्ति गुड् Okay, was it Rameshji or someone else?
Sorry, I had told.
Oh, Sheshadriji, okay. Okay, okay, no issue. Rameshji, Chitramandiram.
Chitramandire, Chitramandire Balakaha Asti.
Chitramandire Balakaha Asti, excellent. Upahara Griham. Samasji, Upahara Griham.
Upahara Griham. गृहे बालकः अस्ति
उपाहारगृहे बालकः अस्ति ओके सुधीर् जी भवान् कुत्र अस्ति भवान् कुत्र अस्ति
भवान् गृहे अस्ति अहं गृहे अस्ति
अस्ति और् समवर्ति अहं वेन् यु आर् मूविङ्ग् अहं
गृहे
अस्मि
अहं गृहे अस्मि एक्सलेण्ट् एक्सलेण्ट् ओके नैस् ओके कुत्र पाञ्चालिका अस्ति वेर् इस् द डाल् उत्पीठिकायां पाञ्चालिका अस्ति उत्पीठिकायां ओके कपाटिका अपर्णा भगिनी कुत्र पाञ्चालिका अस्ति
कपाटिकायां पाञ्चालिका अस्ति
कपाटिकायां पाञ्चालिका अस्ति एक्सलेण्ट् प्रणवजी पेटिका यस् प्रसन्नजी
पेटिकायां मीन्स् आन् द टेबल् कपाटिका विल् बि कबर्ड् right or what is kapatika
yes. Kapatika is
cupboard so on the cupboard is the way we want to say or in the cupboard is what we want to say
okay if we are going to translate it in english it might not sound like correct but it's on in for everything we will use some the sattva is what we want. Yeah.
Okay.
Yeah.
So in and on. Yeah. Okay. In both. And on both we use ya only, is it?
Yeah. Yeah.
Okay.
Okay. Kapatika.
Can I ask a question?
Yes, sure.
So, madam, Utpitika, Kapatika, Petika and Nidhanika, they are all the female gender. Is that why we use the yam at the end?
Yeah, excellent. Okay. So, for pullinga, the one, here we saw, Syutaha, Granthalaya, Apanaha, Hastaha. For everything, we use ye, right? Syute, Granthalaya, Apane, Haste. Haste, everything for pullinga we used ye, right? For napunsakalinga, as I have told you all before, griham, nagaram, chitra mandiram, upahara griham, everything for napunsakalinga, everything it will follow. What will it follow? Apanna Vaigini, I have told you this napunsakalinga thing before itself. How will
so napunsakalinga will follow the rule of the pullinga only.
Excellent. Who will follow the rule of pullinga only. So, for those words also, we are using only ye, right? Griham, grihe. Nagaram, nagare. Chitramandiram, chitramande. Upahara, griham, upahara, grihe. Right? So, pullinga and napunsakalinga, it will be ye. For strilingam, coming to strilingam, it will be yam, utpitikayam, kapatikayam. Petikayam, Nidanikayam, just add one yam, that's it. So Nidanikayam, Petikayam, Kapatikayam, Utpitikayam, that's it. Ja, and in the same way, Kashi, Kashyam, Ujjaini, Ujjainyam, Puri, Puriyam, Kanyakumari, Kanyakumaryam, Kumaryam. Just add yam, that's it, for Srilinga. For pullinga and napunsakalinga it will be ye. For strilinga it will be ya. Right? I will give you a few practicing words after
Hello.
Our class.
Madam,
yes.
Doubt please.
Yes. Yes, yes.
It is yam or ya?
Yam, yam. Utpitika, yam. Yes, yam.
Yam, okay. Ujjaini yam. Ujjaini yam.
Ujjaini yam. Yes, Ujjaini yam. Ujjainyam.
Okay.
Okay. So I will give you a few practicing words after our class. Like Nagaram, Chitra Mandiram, Upaharakumam, a few words I will give. For say for now you remember like for Strilingam, when we are going to answer for Kutra, it will be yam. Right? For Pullinga and Napumsakalinga, when we are going to answer for the question Kutra, it will be ye. Like Nakara, Nagare, Chitramandira, Chitramandire, Syutaha, Syute. Right? Aparna Bhagini, was I convincing? Like you are able to understand now?
Yes, ma'am. Yes, ma'am. We understood.
Oh, okay. So, what we were seeing, Kapatika. Okay. Pranabji, Kapatika, Kutra Pancharika Asti, Kapatika.
Kapatikayam Panchalika Asti.
Kapatikayam Pancharika Asti. Excellent. Gauravji, Petika.
Petikayam Pancharika Asti.
Petikayam Pancharika Asti. Excellent. Nidanika, Samasji, Nidanika.
Nidanikaya Panchalika Asti.
Nidanikaya.
What is the meaning of Nidanika?
Yes, yes. Nidanika. Okay, I don't remember now.
Shelf or rack?
Rack, okay. It is shelf or rack, ji. So, I myself forgot it. It's shelf or rack. Nidanika means shelf.
Thank you.
Okay.
Thank you.
Okay.
Thank you.
Okay, next is Bimalji. Kutra Mandiram Asti, Kashyam Mandiram Asti, Ujjaini, Bimalji.
Ujjainyam.
Ujjainyam, Ujjainyam Mandiram Asti. Excellent. Puri, Narasimhanji, Puri. पूर्यां जगन्नाथमन्दिरम् अस्ति. पूर्यां जगन्नाथमन्दिरम् अस्ति. एक्सलेण्ट्. सुबीजि, कन्याकुमारी.
कन्याकुमार्यां जगन्नाथ
मन्दिरम् अस्ति. कन्याकुमारी सेपरेट् पण् कन्याकुमार्यां मन्दिरम् अस्ति. ओके, 5.2 इट् विल् बि मम पिता सहोदरः. पिता कार्यालयः कार्यं करोति. वेर् डस् योर् फादर् वर्क्? सो कुत्र भवत्याः पिता कार्यं करोति? फार् देट् हौ विल् बि आन्सर्ड्? मम पिता कार्यालये कार्यं करोति. रैट्? वेर् डस् योर् फादर् आर् ब्रदर् वर्क्? देट् इस् द क्वशन्. कुत्र? फार् देट् हौ इस् दि आन्सर्? वित्तकोशः, यन्त्रागारं, दूरवाणी विनिमयकेन्द्रं, स्वास्थ्यसंस्था. Swasthya Samstha, right? These are the words for which we have to answer Kutra. We will start from Ramesh. Mama Pita
Karyalaye Karyam Karoti.
Karyalaye, I completed that. Start from next one, Ji. Vitta Koshe.
Mama Pita Vitta Koshe Karyam Karoti.
मम पिता वित्तकोषे कार्यं करोति. एक्सलेण्ट्. अपर्णा भगिनी, मम सहोदरः यन्त्रागारं.
मम सहोदरः यन्त्रागारे कार्यं करोति.
मम सहोदरः यन्त्रागारे कार्यं करोति. एक्सलेण्ट्. प्रसन्नाजी, मम सहोदरः दूरवाणी विनिमयकेन्द्रम् means the place where they distribute your Duravani, your phone.
For
Sahodara, it will be Bhavatyaha Sahodara Kutra Karyam Karoti.
Kutra,
yes.
Bhavan Sahodara.
Bhavan, I'm asking you.
Okay,
correct. Sudhirji, I think. Sudhirji, okay. You yourself can tell. Swasthya Samstha.
Mama Pita Swasthya Samsthe Karya Karoti.
Samsthe Samstha. So what we saw for Sri Lingam?
Samsthaya.
Samsthaya Karya Karoti. Excellent. Excellent. Okay, are there any doubts? Kindly fill this one. Okay, so page 25, Chalakaha Atra Asti. Okay. Excuse me. Okay, Chalakaha Atra Asti. Where will the Chalakaha means driver be? He will be in Lokayanam. अस्तु लोकयाने. ओके, भवतः मात्रा माता कुत्र अस्ति? प्रणव जी, भवतः माता कुत्र अस्ति? वी विल हैव टू फिल दिस प्रॉपर. भवतः माता कुत्र अस्ति? वेर इज, वेर विल योर बी योर मदर, योर मदर, वेर विल योर मदर बी? भवतः माता कुत्र अस्ति? प्रणव जी, हाउस, व्हाट इज द संस्कृत वर्ड फॉर हाउस?
गृहम.
Correct. So, in Griham, how will you say? In Griham.
Rahasya.
Just we were seeing. Okay. Go to Pranav ji. Okay. Syutaha, what will be the saptami? Kutra, how will you answer for Syutaha?
You cannot read.
Syute.
Syute. Just like that, Griham, what will it be?
Grihe.
Yes, Grihe. Mama Mata, Grihe Asti. Excellent. Okay. Naga, Nagarikaha Atra Vasanti. Narasimhanji.
Yes.
Narasimhanji.
नागरिकाः कुत्र वसन्ति? नागरिकाः नगरे वसन्ति.
नगरे, नागरिकाः नगरे वसन्ति. सुपर. अत्र कार्याणि कुर्वन्ति. अपर्णा भगिनी,
कार्यालये कार्याणि कुर्वन्ति.
कार्यालये कार्याणि कुर्वन्ति. एक्सलेण्ट्. भवान् कुत्र पठति? गौरव जी, भवान् कुत्र पठति? वाट् इस् द वर्ड्? विद्यालय. भवान् कुत्र पठति? विद्यालयः. Just like स्यूतः स्यूते, विद्यालयः what will it be?
विद्यालये.
भवान् विद्यालये पठति. नै. धनम् अत्र रक्षामः. विमल जी,
धनम्
अत्र रक्षामः.
धनं वित्तकोषे रक्षामि.
एक्सलेण्ट्, एक्सलेण्ट्. चलनचित्रम् अत्र पश्यतु. रमेश जी, चलनचित्रम् अत्र पश्यतु.
चलनचित्रं चित्रमन्दिरे पश्यतु.
चित्रमन्दिरे पश्यतु. एक्सलेण्ट्. मशी कुत्र अस्ति? मशी, सुधीर जी, मशी कुत्र अस्ति?
Is Mashi? What is Mashi? Hello?
I think Mashi is ink. Ankanyam, I think. Ankanyam. Ink. Ink or what is, what we call?
What is the pen? Hello?
लेखनी. लेखनी, लेखनी. लेखनी इस् फार् पेन्. लेखन्याम् अस्ति. एक्सलेण्ट्. ओके, ओके, नैस्. कदा? सो वी हेव् टिल् नौ वाट्?
What did Vimalji say for Dhanam Rakshamaha?
धनम् अत्र रक्षामः वित्तकोशं वित्तकोशं मीन्स् बैंक वित्तकोशः मीन्स् बैंक ओके वित्तकोशः मीन्स् बैंक ओके सो वी हैव सीन कुत्र कति नाउ वी विल मूव ऑन टू कदा कदा
भवान् कदा वित्तकोशः
वि आई टी एच ए वित्त को के ओ एस एच ए हेचे
वित्त वित्त और वित्त बी
बी बी बी आई नो नो बी फॉर वैन वैन वित्तकोशः
वित्तकोशः मीन्स् बैंक
यस वित्तकोशः मीन्स् बैंक ओके ओके सो वी विल मूव ऑन टू 5.4 कदा भवान् कदा उत्तिष्ठति अहं पञ्चवादने उत्तिष्ठामि ओके दिस वी हैव ऑलरेडी सीन राइट प्रणव जी भवान् कदा विद्यालयं गच्छति
सप्तवादनम्
कदा फॉर दैट
अहम् अहम् वन वीक
अहम्
हाउ विल बी आंसर
अहम् सप्तवादने उत्तिष्ठामि
यस सप्तवादने उत्तिष्ठ ओके आई वाज आस्किंग भवान् कदा विद्यालयं गच्छति ओके गौरव यू कैन आंसर मी विद्यालयं गच्छति when do you go to school at what time
I go to ashtavadanam 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 kada vo vidyalaye gachati
aham ashtavadanam ashtavadane vidyalayam gacham So, for kada only we are going to answer ashtavadane. When do you go to school? So, you will have to answer aham ashtavadane vidyalayam gacchami. 8 o'clock I go to school. Ashtavadane vidyalayam gacchami.
Okay.
Nice, you understood?
Yeah.
Okay. Narasimhanji, Suryo. Yes, yes.
It will not be a Vidyalay.
Vidyalay and Mandi.
Vidyalay, okay, because it is the pulling of, sorry sir.
No, no. Vidyalayaha is pulling of Mandi, but the answer to Kada will be your timing. Like Panch, Kada, Aha Panchavadane, Kada Uttishtati, Panchavadane Uttishtami. Just like that. Kada Vidyalayam Gachati, Ashtavadane Vidyalay. Gachami. So answer to your kada will be Ashtavadanam or Panchavadanam or Saptavadanam or something, some time, right? Vidyalaya won't change. It will remain the same. Okay, Narasimha Manji, Suryodaya kada bhavati, sunrise. Sunrise, when does this happen?
Suryodaya
Ratha Shadvadane bhavati. Shadvadane bhavati, excellent. Bimal ji, Bhavan, okay, Bhavati it is, okay, Bhavan kada kridhati? Bimal ji, kada kridhati Bhavan?
Bhavan, panchavadane kridhati.
Bhavan, okay, when you are going to answer this question, what, how will it be?
Bhavan,
अहं
पञ्चवादने क्रीडति
क्रीडति अहं वाट् विल् इट् बि क्रीडति आर् क्री समथिङ्ग् एल्स् क्रीडामि
क्रीडामि सोरि क्रीडामि अहं पञ्चवादने क्रीडामि ऐम् प्लेयिङ्ग् गेम्
ओके भवती कदा पठति अपर्णा भगिनी भवती कदा पठति
अहं मध्याह्ने पठामि
अहं मध्याह्ने पठामि एक्सलेण्ट् सीता सायङ्काले नृत्याभ्यासं करोति सीता कदा नृत्याभ्यासं करोति सीता सायङ्काले नृत्याभ्यासं करोति ओके विमलजी आन्सर्स् अपर्णावल्नि आन्सर्स् रमेशजी वेङ्कटेशः षड्वादने योगासनं करोति
वेङ्कटेशः कदा योगासनं करोति
वेङ्कटेशः कदा योगासनं करोति एक्सलेण्ट् आफ्टर् रमेशजी कृति सुधीर्जी माता दशवादने पाकं करोति
माता कदे पाकं करोति
माता कदा पाकं करोति एक्सलेण्ट् समर्जी सा प्रातःकाले पूजां करोति
सा कदा पूजां करोति
सा प्रातःकाले पूजां करोति ओके
भवती सूर्योदये कदा भवति वर्ब् विल् नाट् चेञ्ज् भवती विल् नाट् चेञ्ज् टु एनिथिङ्ग्
नो इट्स् जनरल् रैट् जनरल् सेण्टेन्स् लैक् सूर्योदय वेन् डस् इट् हेपन् भवती मीन्स् लैक् वेन् हेपन् of that sort. So, okay. Suryodaya kada bhavati? Suryodaya ashtavadane bhavati.
Okay. Not a verb, it's just like a...
No. You got confused, I think. You got confused between bhavati and bhavati. This bhavati is like verb and that bhavati which you are asking is for a female, like bhavan bhavati.
Correct. Right? But I'm saying that bhavati means happening, correct? Happening will not
happen. Yes, verb will not change. You're right.
Okay.
So after Sudhir ji, Aparna Bhakti, okay, Prasanna ji. Prasanna ji, sa pratah kal, okay, aham madhyane bhojanam karomi.
Aham kada bhojanam karomi.
Okay, Bhavan,
kada bhojanam karoti? When... Okay. No, I was asking myself because it was aham. I should ask someone else. So, okay. Bhavan, kada bhojanam karoti?
Bhavan, kada bhojanam karoti? Excellent. Okay, Sheshadri ji, for you, the sentence will be... सीता सायङ्काले नित्याभ्यासं करोति दट् विल् बि योर् सेन् शेषाद्रिजि
जस्ट् अ मिनिट् अन्म्यूट् ओके कदा सीता नित्याभ्यासं करोति
एक्सलेण्ट् कदा सीता नित्याभ्यासं करोति योर् सीता कदा नृत्याभ्यासं करोति एक्सेल् ओके सो मूविङ्ग् टु 5.5 एक्सर्सैज् कैन् बि आल् टु प्लीस् सो पेज् 27 हू इस् गोयिङ्ग् टु टेल् मी लैक् अद्य कः वासरः श्वः parahyah yah we will start from the starting like Pranav ji you remember we saw this right okay or else Narasimhan ji can we start from you adya you tell adya what vasaram then Pranav ji will say yah yesterday what the day was Gaurav ji is parahyah Praparasyaha will be Bimalji. Then after Bimalji, Taparna Bhagini will save Shwaha. Then Parashwaha will Rameshji will save. And Praparashwaha Samarthji. Right? This is
sorry.
Okay. So Narasimhaji is going to start. He is going to tell Adya Kaha Basaraha. We have seen this earlier. Like you all remember, hope you all remember, I think. So Adya Narasimhaji will start. Hyaha Pranavji will say. Yesterday what the day was, Pranavji will say. Gauravji is Parahyaha. Then Praparahyaha will be Bimalji. Then Shwaha is Taparna Bhagini, Parashwaha is Rameshji, and Praparashwaha is Subhiji.
I think I lost you.
How is it?
Adya Thiravasaraha.
Adya Thiravasaraha. Subhiji, you will have to tell the Vasara. We have seen, right, Bhanu Vasaraha, Shani Vasaraha, Soma Vasaraha, Mangala Vasaraha.
Okay.
So I have
one Yesterday, Friday. Friday, how will it be called?
I don't know.
Shukravasaraha. You remember that? Shukravasaraha, Friday.
Oh, okay. Yaha Shukravasaraha.
Yaha Shukravasaraha. Excellent. Gauravji, Parahyaha Kaha Vasaraha. Yes, correct. Vasaraha. Excellent. Parahyaha Guru Vasaraha. Very nice. Bimalji, Praparahyaha Kaha Vasaraha.
Praparayaha Budavasara.
Praparashyaha Budavasara. Nice. Adya Siravasara. Shwaha Kaha Vasara, Aparna Bhagini.
Shwaha Bhanu Vasara.
Shwaha Bhanu Vasara, Ravi Vasara. Excellent. Praparashwaha Kaha Vasara, Rameshji.
Praparashwaha Soma Vasara.
Praparashwaha Kaha Vasara. Samadji, Praparashwaha Kaha Vasara. Praparashwaha Kaha Vasara. Samadji Vasara. Savatji, Praparashwaha means what? Okay, am I audible? Hello?
Yes, yes, you're audible.
Okay, Sudhinji, I'm not able to hear you. If Savatji or you are talking, I'm not able to hear you. Okay, Prasannaji, Praparashwaha Kaha Vasaraha?
भौमवासरः परश्वः भौमवासरः
प्रपरश्वः भौमवासरः मङ्गलवासरः प्रपरश्वः मङ्गलवासरः नैस् ओके शेषाद्रिजी अद्य कः वासरः
अद्य स्थिरवासरः
अद्य स्थिरवासरः नैस् नैस् ओके सो अद्य षोडशदिनाङ्कः पञ्चदशदिनाङ्कः कदा पञ्चदशदिनाङ्कः ह्यः षोडशदिनाङ्कः मीन्स् 26 सो सारि 16 पञ्चदश मीन्स् 15 दिनाङ्कः वास् यस्टर्डे सो अद्य सोमवासरः मङ्गलवासरः कदा ओके शेषाद्रिजि अद्य सोमवासरः मङ्गलवासरः कदा सो इफ् टुडे इस् सोमवासरः मङ्गलवासरः इस् वेन् शेषाद्रिजि यु आर् अन्म्यूटेड्
ओके अद्य सोमवासरः युवर् क्वश्चन् प्लीस्
मङ्गलवासरः कदा इफ् टुडे इस् सोमवासरः देन् वेन् इस् मङ्गलवासरः कदा
कदा मङ्गलवासरः भवति डे आफ्टर् टुमारो परश्वः मङ्गलवासरः परश्वः मङ्गल
नो नो टुडे इस् सोमवासर कन्सिडर् टुडे इस् सोमवासरः देन् मङ्गलवासर इस् ट्यूस्डे ट्यूस्डे विल् बि द नेक्स्ट् डे आफ् सोमवासर फार् नेक्स्ट् डे वाट् विल् बि डे
नेक्स्ट् डे इस् टुमारो श्वः परश्वः परश्वः इस् डे आफ्टर् टुमारो
ओके श्वः मङ्गलवासरः टुडे इस् टुडे इस् मण्डे अद्य सोमवासरः देन् मङ्गलवासरः विल् बि श्वः एण्ड् बुधवासरः विल् बि परश्वः रैट् ओके शेषाद्रिजि ओके करेक्ट् करेक्ट्
No, today is Sunday, you had told.
No, 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 today is Monday. Monday, that's what I'm trying to say. Adhya Soma Vasaraha. Adhya Soma, consider today is Soma Vasaraha.
Okay. Okay. Swaha, Swaha, Mangala Vasaraha.
Swaha, Mangala Vasaraha. Right. Okay, Adhya 24th Tama Dinankaha, Prasannaji. 26th Tama Dinankaha Kada. If today is 24th, then 26th is when?
षट्विंशति परश्वः षट्विंशति तमः दिनाङ्कः
एक्सलेण्ट् परश्वः षट्विंशतितमः दिनाङ्कः दट्स् नैस् वेरि नैस् ओके
तम दिनाङ्कः मीन्स् वाट् मीन्स् टुडे
24th इट् इस् तम दिनाङ्कः मीन्स् डेट् डेट् सो 26th is tomorrow, is day after tomorrow, Parashwaha.
So, Tama Dinankam is date, correct?
Yes, Tama Dinankam is 24th date. Tama means date, it's the TH, those you put, right? Like first, yes, T, TH, for that it is Tama. Bhimaji, I was fine. ओके एतत् सम्भाषणं पठतु ओके सो एक्चुलि देर् इस् वन् पर्सनल् एमर्जेन्सि फार् मी सो ऐ विल् हेव् टु स्टाप् द क्लास् वित् दिस् वाट् ऐ विल् डू इस् देट् ऐ विल् गिव् यू फ्यू अभ्यासं लैक् ऐ हेव् टोल्ड् इन् सप्तविभक्ति ऐ विल् गिव् यू फ्यू अभ्यासं I will see if I can get those words for Saptami Vibhakti. I can prepare it and send it today or next class. So in just like we did Bahuvachana Abhyasam, we will do same way Saptami Vibhakti Abhyasam next class starting. Or I will send it, send the PDF like for you to complete. I will check like I'm able to get it or not. So homework for next week will be, excuse me, kindly read the Sambhashanam, the conversation given in page 28 of Abhyasa Pustakam, the one which I am showing you. Kindly read this, right? So Pranavji, Gauravji, this is in English too, so you will be able to read it, I guess. Read it, then just frame words for the one which is given in below one, highlighted one. In pink color it is highlighted, right? For these words, kindly frame sentences. Like Harihi Om is like normal one, Harihi Om. Suprabhatam, like we saw last class, is good morning is for Suprabhatam, Swagatam is welcome, Shamyakam is sorry, Namaskaraha is Namaskaraha, Chintamasu is no problem, right? So we will have to just go through the Sambhashanam and frame simple sentences using the words which are given below. These are the words, like six words, just frame simple sentences. Okay, this will be your homework, I will send. And I will also check for the Saptavibhakti words. Okay. Very sorry for the inconvenience. There is one personal emergency. I will have to stop our class now. Who started the class? Who told the Dhyana Shlokam? It was Bhimaji, I think. Yeah, can you tell the end Shlokam as well?
Sarve Bhavantu Sukhinaha. सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः
धन्यवादः